त्वद्वपुर्नवकलाय कोमलं प्रेमदोहनमशेषमोहनं ब्रह्मतत्त्वपरचिन्मुदात्मकं वीक्षसम्मुहुरन्वहं स्त्रियः मन्मथोन्मथितमानसः क्रमात् त्वद्विलोकनरतास्ततस्ततः गोपिकास्तवनसेहिरे हरे काननोपगतिमप्यहर्मुखे निर्गते भवति दत्तदृष्टयः त्वद्गतेन मनसा मृगे क्षणाः वेणुनादमुपकर्ण्य दुरतः त्वद्विलासकथयाभिरेमिरे काननान्तमितवान् भवानपि स्निग्धपादपतले मनोरमे व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनालिकाम् मारबाणधृतखेचरीकुलं निर्विकारपशुपक्षिमण्डलं द्रावणं च दृशदामपि प्रभो तावकं व्यजनि वेणुकूजितम् वेणुरन्ध्रतरलाङ्गुलीदलं तालसञ्चलितपादपल्लवं तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः निर्विशङ्कभवदङ्गदर्शिनीः खेचरिः खगमृगान् पशूनपि त्वत्पदप्रणयिकाननं च ताः धन्यधन्यमिति नन्वमानयन् आपिबेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा दूरतो बत कृतं दुराशयेत्याकुलामुहुरिमास्समामुहन् प्रत्यहं च पुनरित्थमङ्गनाः चित्तयोनिजनितादनुग्रहात् बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् रागस्तावज्जायते हि स्वभावात् मोक्षोपायो यत्नतस्यान्न वा स्यात् तासां त्वेकं तद्वयं लब्धमासीत् भाग्यं भाग्यं पाहि मां मारुतेश सदा सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्दा गोविन्दा नारायणा अखिलगुरो भगवं नमस्ते।